ॐ वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ ॐ ॐ एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॐ ॐ सहनाभवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः 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 गुरुभ्यो नमः
अस्तु उत्तमम् अभ्यासदर्शिनी इज़ दैट द बुक वी हैव यूज्ड इन द पास्ट अत्र वर्गे भवत्या पार्श्वे अस्ति वा अभ्यासदर्शिनी
नास्ति भगिनी एकवारं कृपया चाट् मध्ये पोस्ट् करोति
वा जनार्दन हेगडे ऐ थिंक यः सुधा भगिनी भवत्याः पार्श्वे अस्ति वा
ऐ थिंक ऐ टुक इट् फ्रम् ऐ टुक प्रिंट औट् फ्रम् वन् आफ् द अदर् टीचर्स् हू पोस्टेड् अ लाङ्ग् टैम् बेक् भगिनी
Have I never used it in this
no,
class?
No, 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 you have not. I think you have used it, but you have sent like, you know, a WhatsApp pages, whatever we use, yeah.
That's so. So, we have not studied all the pages I have sent, I know that. Can you tell me which pages you have that I have not used, that we have not studied?
Then yeah, Bhagini.
Then we'll go back and... review those and then move forward. I think chapter 5 adhyaya panchama adhyaya atra tatra puratah prishtatah kutra tattu vayam pathamah pathita vantah apicha puta sankhya ekatrimshat api pathita vantah द्वित्रिंशत् उहितेन उचितेन शब्देन रिक्तस्थानानि पूरयत द्वितीया एकवचन बहुवचन षष्टम अध्याय पठितवन्तः वा
षष्टम अध्याय किम् अस्ति भगिनि बिकोस् षष्टम इंडिविजुअल पेजेस दैट आई हैव सो कन्फ्यूज्ड
अस्तु आई विल जस्ट सेंड इट नाउ ओनली एंड वी कैन स्टार्ट स्टडीिंग षष्टम अध्यायः इति पुस्तकं बहु सम्यक् अस्ति If you want to buy Abhyasa Darshini Janardhan Hegde Mahodayena Aduna Eva Aham Preshayami Pram अष्टम अधुना द्वितीया एकवचन बहुवचन लेखननियमः इति वाट्साप् मध्ये पश्यतु वा कृपया.
आं भगिनि. आं भगिनि, इति अहं न कृतवन्तः.
हा, न कृतवन्तः. हा, माता सुधा भगिनी, रमेशः, शैलजा भगिनी, एकवारं पठतु कृपया.
आं भगिनि, द्वितीया.
आं भगिनि,
एकवचनं बहुवचनं लेखनीयं.
लेखननियम,
लेखननियमः. माता, रमेश किं करोति भवान्?
रमेशः पाठं पठामि अम्ब.
वत्स आपणं गत्वा लवणं शर्करां
आडक्रि
गुडं च आनयतु.
गुडं वा गृहं वा भगिनि? गुडं
गुडं गुडं.
रमेशः, भवती भगिनीं वदतु अम्ब. सो हि इस् आस्किङ्ग् टेल् टु सिस्टर् भवती.
सा अवकारन् क्षिप्त्वा मात्राणि क्षालयति. जलेन लताः सिञ्चति. ततः कर्मकरीः क्षेत्रं प्रापयति. एवं तस्याः बहूनि कार्याणि सन्ति.
ममापि पठनं बहु अस्ति.
दशनिमेषाभ्यन्तरे आपणं गत्वा आगन्तुं शक्यते. अनन्तरं भवान् पठतु.
भवती शीघ्रं धनं स्तूतं च ददातु. स्यूतम् स्यूतं. हूं, भवती शीघ्रं धनं स्यूतं च ददातु.
उत्तमम्. अस्तु, कृपया सारांशरूपेण एकवारं वदतु अत्र किम् अभवत्. माता अपि रमेशस्य सम्भाषणे किम् अभवत् अत्र?
mother is asking Ramesh to do some work, I think, Bhagini. Mm-hmm. And he's refusing, and he's asking his mother to ask her sister, half his sister, to do the work. Mm-hmm. But mother is saying, like, you can do it later after 10 minutes. Keep, you can go and you can read it. Mm-hmm. But she's asking, she's insisting him to do it. And finally, he agreed to do the work, and he's asking her to put the money in his bag.
Mm.
The money in the bag. That's it.
No, no.
I don't know some of
the... Tigram dhanam syutam cha dadatu. It took him?
Ah, bag and money.
Ah.
Give money and bag fast, as ASAP, as soon as possible. Yeah.
Uttamam. Tadeva, Sanskrit bhashayam vadatu ekam ekam. Sambhashane kim abhavat?
Rameshah mata karyam
Rameshah mata ityukte Rameshah
mata cha ekam karyam karne ko kya bolta hai bhagini
सरल रूपेण इत्युक्ते अधुना एकं सम्भाषणम् अस्ति सम्भाषणे एका माता अस्ति अपि च तस्याः पुत्र रमेशः अस्ति अस्ति वा न वा
आं भगिनि
सम्भाषणे सम्भाषणे इत्युक्ते सप्तमी सम्भाषणे
इन् कान्वर्सेशन्
एका माता अस्ति एका माता अस्ति अपि च
एकः रमेश एकः पुत्रः अस्ति
अपि च तस्याः पुत्रः तस्याः इत्युक्ते
हर् सन्
तदेव तस्याः पुत्रः रमेश नाम अस्ति उत्तमम् उत्तमम् देन् मदर् आस्क्स् रमेश वदतु शैलजा भगिनी मदर् आस्क्स् रमेश इति वदतु अनुवादं करोतु
माता रमेशं वदति
वदति अपि च पृच्छति किं पृच्छति भगिनी
किं करोति इति पृच्छति
भवान् किं करोति इत्युक्ते भवान्
किं करोति रमेशः किं करोति इति पृच्छति
हा इत्युक्ते अधुना किं करोति अभि क्या कर रहे हो अधुना किं करोति भवान् उत्तरं किं वदतु भगिनी रमेश सेज् हि इस् ब्ला 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 वदतु सुधा भगिनी वदतु
पाठं पठामि अम्बा इति रमेशः वदति
पाठं पठामि इत्युक्ते
I'm reading the lesson.
पाठं तु कर्मपदं पठामि तु क्रियापदम् अम्ब तु
सम्बोधन
उत्तमं पाठं पठामि अम्ब तदनन्तरं किम् अभवत् सुधा शैलजा भगिनी
माता पृच्छति
माता वदति माता
माता कार्यं
एकं कार्यं
वदति
कं वदति कार्यं कं
आपणं गत्वा लवणं शर्करणम् इति
आ, आनयतु इत्युक्ते कं वदति, कं वदति इत्युक्ते किम्?
कम् इस् वाट् भगिनि?
न न न, कम् इत्युक्ते द्वितीयविभक्ति. कः कौके? कं कौकान्? कम् इत्युक्ते सुधा भगिनी
किस्को बोलती है.
किस्को इत्युक्ते द्वितीयकर्मपदं, प्रश्नवाचक कर्मपदं, पुंलिङ्गं पदं. कः कौके? कं कौकान्? अवगतं शैलजा भगिनी?
आं भगिनि.
माता कं वदति?
माता रमेशं वदति.
रमेशं तस्याः
पुत्रं वदति. तस्याः पुत्रं वदति.
किं वदति?
एकं कार्यं, एकं कार्यं वदति.
एकं कार्यं किं?
कार्यं एतानि वस्तूनि आनयतु. आनयतु इस् वाट् भगिनि?
आनयतु, लाओ, लेके आओ.
लावो.
आनयतु, यतु. आनयतु लकार किं सुधा भगिनि? लोट्, लोट्. लोट् इत्युक्ते आनयतु. आनयतु इति पदस्य विषये वदतु सुधा भगिनि.
आनयतु
धातु किम्? नी धातु. नी धातु. नी इत्युक्ते ले जाना. To lead, to carry, to take away. नी ले जाना. नी धातु. किन्तु अत्र तु आ योगः. नी आ किं किं करोति? अत्र उपसर्ग अस्ति. यथा गच्छति आगच्छति. गच्छति इत्युक्ते किम्?
गान्
न. उत्तमम्. आगच्छति इत्युक्ते
कमिङ्ग् बेक्.
रिटर्न् इट् अपोसिस् इत्युक्ते विपरीतार्थक. किं करोति तत्? विपरीतार्थकशब्द अस्ति आगच्छति. तथा यथा गच्छति आगच्छति भवति, नयति आनयति भवति. नयति इत्युक्ते किं? ले जाओ. नी धातुतः मीन्स् यू द लीडर्, प्लीज् टेक् विथ् यू. फार् एक्साम्पल् इफ् ऐ टेक् अ बुक् वित् मी टु द लैब्ररी, देन् नी धातु. अहं पुस्तकं नयामि. अहं पुस्तकं.
सो वी हैव टु यूज द कंटेक्स्ट वेयर द पर्सन ओनली हिमसेल्फ हैज टु डू और हरसेल्फ हैज टु डू इज डूइंग द वर्क देयर.
किम्?
यूजिंग नयतु. नयतु शब्दः
मींस यू बी द ब्रिंगर ऑफ. यू ब्रिंग. नयतु. ले आओ. ले आओ. आनयतु. कस्मात् आनयतु? प्रश्न उदेति. कस्मात् आनयतु वदतु. कस्मात् इत्युक्ते
वाट्? वाट् आर् द थिङ्ग्स् भगिनि?
न न, कस्मात्? कस्मात् विभक्तिरूपं किं? प्रातिपदिकं किं सुधा भगिनी वदतु?
कस्मात् फ्रम् वेर् पञ्चमी.
प्रातिपदिकं
कः?
कः तु प्रथमविभक्ति एकवचनरूपं.
पञ्चमी एकवचनशब्दः.
किं? किम् उत्तमं प्रातिपदिकं किम्
किम्
प्रातिपदिकम् अस्ति किं प्रातिपदि पदिकस्य शब् प्रातिपदिकस्य पुंलिङ्गं रूपाणि अपि स्त्रीलिङ्गं रूपाणि अपि च नपुंसकलिङ्गं रूपाणि सर्वे निष्पन्नं भवन्ति किन्तु अत्र तु पुंलिङ्गम् अस्ति किमर्थं पुंलिङ्गम्
रमेशः इस् पुल्लिङ्गशब्दः अस्ति चेत्
कस्मात् इति सत्यं वा सुधा भगिनी सत्यं वा
आं भगिनि
किमर्थं सत्यं कस्मात् इत्युक्ते
कस्मात् नो भगिनि फ्रम् इति रमेशः नास्ति आपणम् अस्ति
आपणं कीदृशपदं लिङ्गं किम्
आपणम् इति नपुंसकलिङ्गपदं कस्मात् पुंवत् नपुंसकलिङ्गं पञ्चमी पुंलिङ्गं समानेव
अस्तु शैलजा भगिनी सत्यं वा आपणं कीदृशपदम्
आपणं इस् नपुंसकलिङ्गपदम्
अस्ति वा
वन् मिनिट् भगिनि आपणः
न भगिनि पुंलिङ्गमस्ति सारि पुंलिङ्गमस्तदेव
वदामि कथं जानीमः
आपणम् इस्
अधुना किमर्थम् आपणम् इति दत्तं किमर्थम्
द्वितीयविभक्ति
कर्मपदमस्ति
मार्केट् को जाने के लिए बता रही हैं
उत्तमम् उत्तमं सर्वाणि रूपाणि एकवारं वदतु शैलजा भगिनी किं पुंलिङ्गरूपाणि वदतु
किं कः कौके किं कौ कान् केन काभ्यां कौः कस्मै काभ्यां
कैः
कस्मै काभ्यां केभ्यः कस्मात् काभ्यां केभ्यः कस्य कयोः केवां
केषां
केवां केषां केषां कस्मिन् कयोः केषु
उत्तमम् अधुना तु कस्मात् इत्युक्ते पञ्चमी एकवचन पुंलिङ्गरूपमस्ति किमर्थम् आपणं तु पुंलिङ्गं पदमस्ति कस्मात् आनयतु आपण उत्तरं वदतु कस्मात् आनयतु
लवणं
न कस्मात् आनयतु इति प्रश्नः
कस्मात्
आनयतु इत्युक्ते
कस्मात् इस् फ्रम् वेर्
कस्मात् आनयतु
फ्रम् वेर् टु गेट् दीस् थिङ्ग्स् भगिनि आपणं गत्वा
तत्तु सत्यं किन्तु
आनयतु
पञ्चमी वदतु भगिनि पञ्चमी वदतु कस्मात्
कस्मात् आनयतु आपणम् आपणात्
आनयतु इत्युक्ते दुकान् से लाओ इत्युक्ते किं दुकान् से लाओ सुधा भगिनी कृपया शेर् करोतु बिना भगिन्याः सह
किं भगिनि
बिना भगिनी जस्ट् जायिन् अस्तु स्वागतम् अस्तु सो कस्मात् आनयतु आपणात् आनयतु किं किम् आनयतु
लवणं शर्करां आडकीं गुडं च आनयतु
लवणम् इत्युक्ते
लवणं नाट् श्योर् भगिनि ऐम् जस्ट् चेकिङ्ग्
लवणं सुधा भगिनि
लवणं
साल्ट् salt. Or, we say also, no? We say that also, no? Lavana?
Lavana.
I have heard, not heard, Bhagini.
No?
Lavanam is the S table. Sharkaram is sugar, Bhagini.
Sugar. Kidrishapadam. Lavanam. Kidrishapadam lingam kim?
Lavanam is napunsukalinga padam.
Sharkaram ityukte sharkaram kidrisha padam
sharkaram
sharkara iti strilinga padam
strilinga
sharkara iti strilingam padam uttamam atra tu sharkaram kidrisha padam
dvitiya vibhakti ekavachana shabdam karma padam
uttamam adakim ityukte
adakim
आडकीम् आडकी इत्युक्ते किं तूर् दाल् यु नो अरर् दाल् यु नो देट् दाल् एव्रिडे दाल्
तूर् दाल्
तूर् दाल् आडकीम् आडकीम् इत्युक्ते किम् अवगतं वा शैलजा भगिनी तूर् दाल्
आं भगिनि आं भगिनि ऐ एम् जस्ट् चेकिङ्ग् इन् spoken sanskrit adakim trying to type in
kidrisha padam lingam kim
strilingam padam deja ikara anta strilinga padam nadivat
nadivat uttamam gudam gudam kidrisha padam
gudam is jagri bagini gudam is
uttamam
kidrisha napunsakalinga padam va I'm checking
pumlingam
किमर्थं किमर्थं भगिनि स्पोकन् संस्कृत मध्ये पश्यतु भगिनि गुड् जागरि पुंलिङ्गं पदम् उत्तमं लवणं शर्कराम् आडकीं गुडं च आनयतु तदनन्तरं रमेशः तदनन्तरं किम् अभवत् सुधा भगिनि
आपणं गत्वा सर्वाणि वस्तूनि आनयतु इति अम्बा वदति रमेशः वदति भवती भगिनीं वदतु अम्बा इति
भगिनीं भगिनीं कीदृशपदम्
भगिनीम् इति द्वितीया विभक्ति एकवचन कर्मपदम्
सर्वाणि रूपाणि वदतु
भगिनी सर्वाणि प्रथमविभक्ति सर्वाणि रूपाणि भगिनि
सर्वाणि सप्त एकविंशतिरूपाणि सर्वाणि वदतु भगिनि
हां भगिनि भगिनी भगिन्यौ भगिन्यः
प्रथम एकनिमिष भगिनी कीदृशपदं प्रथमविभक्ति एकवचनरूपम्
इति दीर्घ ईकारान्त स्त्रीलिङ्गपदमस्ति
नदीवत् उत्तमम् उत्तमं यद्यपि वयं किं वदामः भगिनी भगिनी नमस्ते भगिनी कथमस्ति भगिनी इति वदामः किन्तु तत् रूपं किम्
भगिनी
न नमस्ते भगिनी नमस्ते भगिनी कीदृशरूपम्
ह्रस्व अस्ति
ह्रस्व अस्ति इत्युक्ते विभक्तिरूपं
भगिनी
हे नदी इत्युक्ते किम्
सम्बोधन
इत्युक्ते दीर्घ ई अस्ति चेत् स्त्रीलिङ्गं पदं सम्बोधनरूपं किं ह्रस्व इ भवति अस्तु भगिनी
भगिनी भगिन्यौ भगिन्यः हे भगिनी हे भगिन्यौ हे भगिन्यः भगिनीं भगिन्यौ भगिनीः भगिन्या bhagini bhyam bhagini bihi
dirgha eva hrasva eva bhagini bhyam
bhagini bhyam bhagini dirgha asti bhaginyau bhaginyai bhagini bhyam bhagini bhyah bhaginyah bhagini bhyam bhagini bhyah bhaginyah bhaginyoh bhagini naam
bhagini naam dirgha
dirgha bhagini naam
nadi naam
nadi naam bhagini naam bhaginyam bhaginyo bhaginyoh bhaginishu
tadeva uttamam uttamam sarvani rupani varam varam uktva kinchit kinchit manasi tishtati uttamam ha kim vadati rameshah puna vadatu
अम्बां वदत् रमेशः अम्बां वदति भगिनी वद भगिनी आपणं गत्वा वदतु इति
हा भग् इत्युक्ते मम भगिनी इत्युक्ते मम भगिनीं वदतु अम्ब मम भगिनीं वदतु मां मां मा वदतु भगिनीं वदतु इति वदति अस्तु अम्ब अम्ब कीदृशपदम् अत्र एकवारं पश्यतु अम्ब कीदृशपदम्
अम्ब इति स्त्रीलिङ्गमस्ति सम्बोधन अस्ति अम्ब
अम्ब किन्तु किं रमावत् अस्ति वा किम्
सम्बोधन अम्ब इति दीर्घ अस्ति रमावत् बट् सम्बोधनरूपम् अस्ति हे अम्ब
हे अम्ब
स्पेशल् केटगरी अस्ति
स्पेशल् केटगरी अस्ति यद्यपि रमावत् अस्ति सम्बोधनरूपाणि विशेषः भवन्ति इति यथा हे अम्ब हे अक्क हे अल्ल इति दत्तम् अम्बा अक्का अल्ला रमा अक्का अक्का इत्युक्ते किम् अक्का इत्युक्ते
अक्का अपि अम्बा अर्थः अस्ति वा
अहं मन्ये भगिनी इति
अक्का इस् मदर् भगिनी इट्स् इस् नपुंसकलिङ्गपदं
सिस्टर् वा किम्
एण्ड् प्रोक्यूरस् इट् सेस् लैक् संथिङ्ग् प्रोक्यूरस्
गिवर् अक्का अक्का इत्युक्ते प्रोक्यूरस् मदर् वा अक्का अपि अस्तु अक्का अक्का भगिनी प्रति एव अहम् इति शृणोमि
इन् तेलुगु अक्का इस् यु नो सिस्टर् भगिनी वि
तदेव दट् इस्
प्रापर् वर्ड्
दट् इस् वेर् ऐ हेव् हर्ड् इट् ऐ थाट् ऐ वास् थिङ्किङ्ग् अक्का अल्ला इत्युक्ते किम् एकवारं पश्यतु
अल्ला
अल्ला It doesn't show up in mine. I don't know why. It is there, but it's not showing. Why?
It's there, Bhagini, but it is not showing.
Why? Let me look up. Yara Lava. Allah. Astu. Amba. Amba. Amba Sarvani Rupani Vadatu. Sudha Bhagini.
Ambagini. Amba.
Bhagini, what page number, Bhagini?
Ramavat asti.
Amba.
Ramavat ityukte kim? अल्ला इत्युक्ते अधुना तु अहं पश्यामि अल्ला इत्युक्ते अले भूषार्थे लाति गृह्णाति माता अपि माता अस्ति उत्तमम् अल्ला अपि माता अस्ति उत्तमम् ऐ वण्डर् इफ् दट् इस्
So synonyms no Bhagini, Allah, Akka, and Amba.
And Allah, you know, we think of it as a Urdu word meaning Allah.
Actually,
Mata only. That means giver ultimately is Mata only. First and foremost is Mata only. See, in history how things change and the gender changed and it became very much masculine. In fact, only masculine. Then it became not even mother, it became some external creator object. Very interesting, no? How history changes things. Astu, Amba, Akka, Allah. Vadatu Sarvani Rupani Kripaya Sudha Bhagini.
Amba, Ambe, Ambaha. He Amba, He Ambe, He Ambaha. Amba, Ambe, Ambaha. अम्बाया अम्बाभ्याम् अम्बाभिः अम्बायै अम्बाभ्याम् अम्बाभ्यः अम्बायाः अम्बाभ्याम् अम्बाभ्यः अम्बायाः अम्बायोः अम्बाणाम् अम्बायाम् अम्बायोः अम्बासु
उत्तमम् उत्तमं क्षमा अस्ति चेत् शैलजा भगिनी सर्वाणि रूपाणि वदतु क्षमा
आं भगिनि क्षमा क्षमे क्षमाः हे क्षमे हे क्षमे हे क्षमाः क्षमां क्षमे क्षमाः क्षमया क्षमाभ्यां क्षमाभिः क्षमयै क्षमायै क्षमाभ्यां क्षमाभ्यः क्षमायाः क्षमाभ्यां क्षमाभ्यः क्षमायाः क्षमयोः क्षमाणाम् क्षमायां क्षमयोः क्षमासु
क्षमाणाम् इति नकार अस्ति वा नकार अस्ति वा अत्र वदतु
क्षमाणाम्
उचितरूपं किं णकार अस्ति वा नकार अस्ति
क्षमानां वन् मिनिट् पत्नि
कथं जानीमः
नत्वं रूल् रेप् रूल् से आधार् से सा भगिनि रेप्
कथं जानीमः
मा अस्ति चेत् क्षमाणां
निमित्तं किं सुधा भगिनि
आं भगिनि शकार अस्ति निमित्तं मूर्धन्यशकार
कुत्र अस्ति मूर्धन्य
श इति
संयुक्ताक्षर अस्ति
संयुक्ताक्षर
मूर्धन्यशकार योगः किं
मकार
मकार तु न क्ष इति क्षम्या संयुक्ताक्षर अस्ति
क्षमा
इक् इक्
इक् न
ककारयोग
मूर्धन्यषकार अस्ति संयुक्ताक्षर क्ष अस्ति अत्र तु षकार अस्ति चेत् तदनन्तरं समानपदे समानपदे इत्युक्ते एकपद एकमेव पदे विट् मीन्स् इन्सैड् वन् वर्ड् ओन्ली यू केन् नाट् जम्प् टु द नेक्स्ट् वर्ड् विदिन् द सेम् वर्ड् देट् देर् इस् अ षकार इफ् देर् इस् अ नकार देट् फालोस् देन् वाट् हेपन् णकार भवितुम् अर्हति इट् इस् पासिबल् किन्तु अत्र किं मध्ये किं किम् अस्ति क्षमाणां किं किम् अस्ति मध्ये
मकार अस्ति
मकार अस्ति अपि च दीर्घ
दीर्घ आकारान्त
दीर्घ आकार अधुना एकं नूतनसूत्रमस्ति अट् कुप्वाङ् नुं व्यवायेपि एकं सूत्रमस्ति इति कं किं वदति मध्ये इत्युक्ते किं निमित्तं निमित्तम् इत्युक्ते
किमपि अन्यवर्णः नास्ति
न न न न निमित्तम् इत्युक्ते किं
निमित्तं कारणमस्ति
उत्तमं तदेव निमित्तम् अस्ति चेत् निमित्तम् अपि च किं
नकारमध्ये
हा निमित्तं नकारमध्ये किं किम् अस्ति चेत् णत्वं न बाधयति इत्युक्ते किम् अकार अट् अट् इत्युक्ते ह्रस्व अ अपि च दीर्घ अ कुप् कुप् कु इत्युक्ते किं कवर्ग पवर्ग इत्युक्ते अ अ आ कवर्ग पवर्ग अट् कु आङ् दीर्घ आ अस्ति चेत् आ एकम् उपसर्ग अस्ति आ नुम् नुम् एकम् अन्य व्याकरणसंज्ञा अस्ति नुम् अग्रे गत्वा वयं पश्यामः अस्ति चेत् किमपि बाधा न भवति इत्युक्ते नकार अस्ति चेत् णकार भवति एव तदनन्तरं क्षमाणाम् इति उत्तमं क्षमाणां तु षष्ठी बहुवचनरूपमस्ति अस्तु अधुना तु किं भवती भगिनीं वदतु अम्ब भवती भगिनीं वदतु अम्ब अधुना एकं इण्ट्रेस्टिङ्ग् कान्वर्सेशन् ऐ हेड् लेट् मी टेल् यू नौ सो अम्ब मम प्रश्नः अस्ति यदा वयं किमपि सम्बोधनार्थकरूपं वदामश्चेत् किमर्थं ह्रस्व अन्ते अस्ति इत्युक्ते किं जब हम किसी को बुलाते हैं तो यूजुअली वी एक्सटेंड द लास्ट साउंड डोंट वी शैलजा सुधा अस्ति वा न वा something we will extend to call that person because the voice has to carry all the way, you know, somebody you are calling, you will extend the sound. So my question was, if the word is amba yatha rama kimartham sambodhana rupam hrasva asti amba amba kinchit
requesting form is a sambodhana bhagini
ha ha सम्बोधन इत्युक्ते टु अड्रेस् टु काल् टु काल् मम प्रश्नः इत्युक्ते किं वै वेन् यु आर् कालिङ्ग् सम्बडि यु मेक् द सौण्ड् ह्रस्व टेण्डेन्सि इस् टु इलोङ्गेट् वेन् यु काल् सम्बडि यस् आर् नो वेन् ऐ काल् सम्बडि वाट् विल् ऐ डु ऐ विल् इलोङ्गेट् द नेम् नो यु इलोङ्गेट् बिकास् यु आर् ट्रैङ्ग् टु पुट् मोर् सौण्ड् इन् टु देट् सेम् वर्ड् So, hoping it reaches that other person far away. It is when you will elongate. which is the purpose of elongation. Now, the question I had to my teacher was, why is it that when it is sambodhana, even a long word becomes short, amba becomes amba? So the answer I got was, there is a sutra in Sanskrit that I aham tu vismarami, kintu sutram vadati vikalpena ityukte, optionally you can extend it to 3 times as long in sambodhana. This is an option. You can make it short. Also, you can make it like a pluta rupam. Pluta ityukte a ekamatra, a dvimatra, a trimatra. Trimatra asti chet sanya kim pluta. Hrasvatu a, dirghatu a, plutatu a iti. Ityukte atra amba asti kintu vikalpena amba iti api bhavitum arhati. Avagatam va?
Aam bhagini.
Vadatu kim vadami aham?
Sambodhana rupam trini rupani bhavitum arhati. Hrisva amba, udaharana amba, hrisva amba, dirga amba, pluta amba iti.
Amba, trini tu aham na janami, kintu pluta tu, pluta rupam tu bhavitum arhati.
Okay.
Dirga vanava iti aham na, kinchit aham na janami, kintu pluta tu bhavitum arhati.
ओके ओके हाँ
किमर्थं सूत्रेण एकं सूत्रमिति वदति. अस्तु उत्तमं. तदनन्तरं शैलजा भगिनी माता किं वदति?
माता एकमात्रं माता इट्स् रिमेन्स् द सेम् भगिनी माता.
किं वदति सम्भाषणे? प्रथमः तु रमेशः वदति मम मा वदतु, भगिनीं वदतु. तदनन्तरं माता किं वदति? सम्भाषणे किम् अभवत्? शैलजा भगिनी, सम्भाषणे इत्युक्ते अधुना माता वदति आपणं गत्वा.
सारि भगिनी, ऐ लास्ट् द स्क्रीन् अण्ड् सो ऐ कुडन्ट् अन्म्यूट् इट्, सारि.
हा हा, आपणं गत्वा लवणं शर्करा.
माता, आं भगिनी, माता सा अवकरान् क्षिप्त्वा पुत्राणि क्षालयति.
पुत्राणि जलेन पात्राणि भगिनि.
सारि भगिनि.
पात्राणि क्षालयति. क्षालयति इत्युक्ते
नो ऐडिया भगिनि, ऐ एम चेकिंग.
क्षालयति, सुधा भगिनि ऊहां करोतु.
क्षालयति इति थ्रोयिंग्.
थ्रोयिंग्, क्षिपति, क्षालति, क्षालयति इति इत्युक्ते टु थ्रो. क्षालयति, का क्षालयति? का क्षालयति वदतु शैलजा भगिनी, वदतु का क्षालयति इत्युक्ते किं?
पात्राणि क्षालयति वा?
न न न, पात्राणि क्षालयति. का इत्युक्ते
सा क्षालयति.
उत्तमं. का क्षालयति? सा क्षालयति. का इत्युक्ते कौन् फेक्ता है? सा क्षालयति. सा इत्युक्ते वह, लड़की, महिला, स्त्रीलिङ्ग्. सा क्षा, सा का?
सा इस् भगिनीं वा? रमेशः भगिनीं वा?
रमेशः भगिनीम् इत्युक्ते रमेशस्य,
रमेशस्य भगिनी. सारि भगिनी,
रमेशस्य भगिनी, भगिनी, भगिनी रमेशस्य भगिनी सा अस्ति सा क्षालयति अधुना प्रश्न उदेति किं किं क्षालयति अन्यथा कान् क्षालयति कान् इत्युक्ते
कान् इस् लवणं शर्करां आडकीं गुडं
क्षालयति भगिनि क्षालयति कान्
पात्राणि क्षालयति पात्राणि क्षालयति
कान् इत्युक्ते किं
कान् इस् वाट्
रूपं किं विभक्तिरूपं किं
कान
काननु कान् कानतु न कान् कान् कः कौके
कान् इस् द्वितीया विभक्ति भगिनि बहुवचनशब्दः
सर्वाणि रूपाणि
पात्राणि अस्ति चेत् कान् कं कौ
कं कौ कान् अधुना पात्राणि पात्राणि कीदृशपदम्
पात्राणि बहुवचनशब्दः अस्ति
लिङ्गं किम् पात्राणि लिङ्गं किम्
पात्र इस् पाट् नपुंसकलिङ्गपदम् एण्ड् पात्राणि इस्
भगिनि पात्रम् इत्युक्ते किं
पाट् पात्र पात्र इस् पाट्
न न न भगिनि पात्र इत्युक्ते किं
पात्र
अस्ति वा
पात्र
पत्र ओ पत्राणि अस्तु अस्तु पात्राणि मम दोष अस्तु अस्तु
अहं
पेपर् पत्राणि अपि च पात्राणि अस्तु उत्तमं पात्राणि क्षालयति पात्राणि इत्युक्ते
युटेन्सिल्स् आर् समथिङ्ग् लैक् दट् लैक् किचन्
विभक्तिरूपं किं
पात्राणि विभक्तिरूपं नपुंसकलिङ्गपदम् अस्ति चेत् रामः शब्दः फलं फले फलानि द्वितीयविभक्ति भगिनि पात्रे पात्राणि
पात्राणि क्षालयति क्षालयति इत्युक्ते
क्षालयति इस् थ्रोयिङ्ग्
न न न क्षिप्त्वा क्षिप् इत्युक्ते थ्रोयिङ्ग् क्षालयति इत्युक्ते टु वाश् प्रक्षालयति टु वाश् भगिनि प्रक्षालनम् इत्युक्ते पात्राणि क्षालयति क्षालयति इत्युक्ते तु मोना
वाशिङ्ग्
क्षिप्त्वा क्षिप्त्वा इत्युक्ते
क्षिप्त्वा इस् थ्रोयिङ्ग्
क्षिप्त्वा इत्युक्ते त्वान्त त्वान्तरूपमस्ति त्वान्त इत्युक्ते
कर्मपदम् अस्ति त्वान्तपदम् बाद्से बाद्मे कर्मपदम् अस्ति भगिनि सो पात्राणि कर्मपदं बहुवचनशब्दः
क्षिप्त्वा पूर्वं पदं कर्मपदम् अवकरान् क्षिप्त्वा अवकरान्
इस् इट् नाट्
क्षिपति अवकरान् क्षिपति क्षिपति इत्युक्ते थ्रोयिङ्ग् अवकरान् क्षिपति अवकरान् इत्युक्ते
वेस्ट्
वेस्ट् प्रातिपदिकं किम् प्रातिपदिकं किम्
अवकर
अवकर लिङ्गं किम्
अवकर
पुंलिङ्गमेव
मस्कुलिन् भगिनि पुल्लिङ्गशब्दः
अवकर अवकर अवकरान् इति रूपं किं
द्वितीयविभक्ति एकवचनकर्मपदमस्ति
उत्तमं. द्वितीय इत्युक्ते कर्मपदं बहुवचनरूपम् अवकरान् क्षिपति. अवकरान् क्षिपति तदनन्तरं पात्राणि क्षालयति इति. हा सो सा शैलजा भगिनी पुनः वदतु, सा अवकरान् क्षिप्त्वा पात्राणि क्षालयति इत्युक्ते
सा माता वदति रमेशं रमेशः
भगिनी
सा अवकराणि
रमेशस्य
भगिनी अवकरान् क्षिप्त्वा पात्राणि क्षालयति इति रमेशस्य माता रमेशं वदति.
उत्तमं. तदनन्तरं जलेन पठतु.
जलेन लताः सञ्चति
सिञ्चति.
जलेन लताः सिञ्चति. सो शी वाटर्स् द प्लाण्ट्स् लेटर्.
लताः कीदृशपदम्?
लताः इस्
लताः कीदृशपदम्? रमा रमे रमाः.
लताः वैट् इस् लताः भगिनि
पश्यतु. रमा रमे
लताः द्वितीयविभक्ति बहुवचने अस्ति चेत् लताः.
लता उत्तमम्. इत्युक्ते प्रथमविभक्ति बहुवचनरूपम् अपि च द्वितीयविभक्ति बहुवचनरूपम् आकारान्त स्त्रीलिङ्गं पदम् अस्ति चेत् समानेव अस्ति वा न
वा?
अत्र तु लताः सिञ्चति जलेन सिञ्चति. जलेन कीदृशपदम्?
जलेन इस् पुल्लिङ्ग पुल्लिङ्ग शब्दः भगिनि. जलेन द्वितीयविभक्ति जलं. नो भगिनि, जलम् इस् नपुंसकलिङ्गपदम् एण्ड् द्वितीयविभक्ति बहुवचनशब्दः अस्ति. जलेन लताः
न द्वितीय अस्ति चेत् विभक्तिरूपं किम्?
जलं जलं जला.
प्रथमविभक्तिरूपाणि वदतु. जलं
प्रथमविभक्ति इस्
जलं
जलं जले जलानि.
द्वितीय
जलं जले जलानि.
तृतीय
तृतीया जलं जलौ जलौ जलान्. जलेन लाभ्यां जलैः.
उत्तमम्. अधुना तु तृतीय अस्ति. तृतीय एकवचन नपुंसकलिङ्गं रूपं जलेन. जलेन जलेन इत्युक्ते
जलेन इस् बिकास् हीट् इस् यूसिङ्ग् एस् इन्स्ट्रुमेण्टल् भगिनि. हिस् वाटर् वाटरिङ्ग् द प्लाण्ट्
by so, means of water.
By means of water
she is irrigating or watering the
she is watering the plants.
Uttamam. Ityukte bhagini bahu kimapi krutavati bahu kimapi karoti kim kim
karyani karoti.
Bahu karyani karoti kim kim karoti.
Avakaran kshiptva kship क्षिप्तवती पात्राणि क्षालयति.
न न अवकरान् क्षिपति.
अवकरान् क्षिपति पात्राणि क्षालयति. लताः सिञ्चति जले जलं सिञ्चति.
जलेन जलेन सिञ्चति. उत्तमं. तदेव त्रीणि कार्याणि करोति सः. सा भवान् एव गच्छतु इति माता विचिन्त्य वदति. विचिन्त्य इत्युक्ते विचिन्त्य इत्युक्ते सुधा भगिनी
चिन्ता के बाद बात कर रही हैं।
तदेव उत्तमं, तदेव विचिन्त्य इत्युक्ते चिन्ता करके बोली, इतना सोच कर बोली, इतना उसने चिंता किया, किसने, माता ने इतना सोचा, उसके बाद ही तो उसने अपने बेटे को बोला, बट द बेटा डिड नॉट अंडरस्टैंड सो शी हैड टू क्लैरिफाई। उत्तमं। हा सुधा भगिनी अग्रिमं पठतु।
हा भगिनी, ममापि पठनं
ततः
ततः कर्मकरीः क्षेत्रं प्रापयति।
इत्युक्ते
then karmakari maid asti, karmakari kshetram
kshetram ityukte kshetra ityukte kim bharat kshetra
like kshetra. place
kshetram matra ityukte
temple bagini kshetram is something like punya kshetram we say places
place kshetra ityukte place kshetram ityukte napum sakalingam padam asti aduna rupam kim vibhakti rupam kim kshetram prapayati prapayati ityukte kim
prapayati is
प्राप्नोमि अहं
गेटिङ्ग्।
हा उत्तमम् उत्तमं गेटिङ्ग् गेटिङ्ग् हू
द मेड्
कर्मकरीः
कर्मकरीः क्षेत्रं प्राप्नोति प्रापयति।
कर्मकरी कीदृशपदं
कर्मकरी इकारान्त स्त्रीलिङ्गपदम् अस्ति
दीर्घ ईकारान्त स्त्रीलिङ्गपदं कर्मकरीः
कर्मकरीः द्वितीया विभक्ति बहुवचनं
अस्ति वा
कर्मकरीः क्षेत्रं प्रापयति प्रथम विभक्ति बहुवचनं
नदीवत् अस्ति
नदीवत् अस्ति
नदीवत् अस्ति इत्युक्ते कर्मकरीः प्रापयति कर्मकरीः प्रापयति किमर्थं कर्मकरीः प्रापयति कुत्र प्रापयति
क्षेत्रं प्रापयति
क्षेत्रं क्षेत्रम् अधुना इत्युक्ते किम् अत्र वेर् एवर् संवेर् संवेर् सम् प्लेस् प्रोबब्लि हियर् ओन्लि शी इस् ब्रिङ्गिङ्ग् हर् हियर् आर् टेकिङ्ग् हर् संवेर् टु संवेर् क्षेत्रं प्रापयति ततः कर्मकरीः क्षेत्रं प्रापयति ततः क्षेत्रं प्रापयति प्रापयति कीदृशपदम्
प्रापयति इति प्रापयति
कीदृशपदम्
प्रापयति प्रापय भविष्यकालार्थक
न प्राप प्रयोगः आप आप एकं धातु अस्ति भगिनि आप
आप
है ना आप प्राप भवति इत्युक्ते इति पश्यतु एकं चाट् मध्ये अहं प्रेषयामि पश्यतु सर्वे अस्तु अधुना किम् अस्ति आप् एकं धातु अस्ति अधुना तु चुरादिगणे अस्ति कथं जानीमः अय मध्ये अय अस्ति पदे मध्ये अय अस्ति प्रापय यकार आयति प्रापयति प्रापयति अपि च आपति समानेव पश्यति वा आप इति एकं प्रयोगः आप् तदनन्तरं किं प्रापयति कर्मकरीः प्रापयति एवं तस्याः बहूनि पठतु बेगं भगिनि
एवं तस्याः बहूनि कार्याणि सन्ति
तस्याः इत्युक्ते कस्याः
भगिन्याः
रूपं किं
तस्याः षष्टि
एकवचन दीर्घ आकार एवं कीदृशपदम्
एवं अव्ययपदमस्ति
एवम् एकवारं पुनः पश्यतु एवम् अहमपि मन्ये
अव्ययपदमस्ति
अव्यय वा मन्ये एकवारं पुनः हा इण्डिक्लैनबल् उत्तमम् एवम् अस्तु एवं तस्याः बहूनि कार्याणि सन्ति इत्युक्ते किं बहूनि कीदृशपदं
बहूनि कार्याणि इति नपुंसकलिङ्गपदमस्ति बहूनि कार्याणि विशेषणविशेष्यभावमस्ति द्वयोः मध्ये
बहूनि कार्याणि कार्याणि नपुंसकलिङ्गम् अस्ति चेत् अस्तु बहूनि कीदृशपदं विशेषणम् अस्ति वा हा यदि पुंलिङ्गम् अस्ति चेत् रूपं किम् इत्युक्ते बालकाः अस्ति चेत् बालकाः सन्ति कथं वदामः
कार्यम् इति वा बालकाः सन्ति
बहूनि एक इत्युक्ते बहवः बालकाः सन्ति स्त्रीलिङ्गम् अस्ति चेत् बहवी बालिकाः सन्ति अधुना तु बहूनि कार्याणि अवगतं वा नपुंसकलिङ्गम् अस्ति चेत् बहूनि किन्तु स्त्रीलिङ्गं पदम् अस्ति स्त्रीलिङ्गं रूपम् अस्ति चेत् किं बह्वी बह्वी अपि च पुंलिङ्गम् अस्ति चेत् बहवः बहवः विशेषणरूपाणि किञ्चित् भिन्नानि सन्ति अवगतं वा अस्तु उत्तमम् एवं तस्याः बहूनि कार्याणि सन्ति ततः कर्मकरीक्षेत्रं प्रापयति एवं तस्याः बहूनि कार्याणि सन्ति अग्रिमं पठतु
प्रातिपदिकं किं भगिनि
प्रातिपदिकं तु विशेषणरूपे रूपस्य प्रातिपदिकं अहं मन्ये बहु उकारान्त अस्ति वा इति मन्ये उकारान्त अस्ति इति मन्ये भगिनि बहु
बहु
बहु बहु इति मन्ये अवगतम्
आं भगिनि
बहु इति प्रातिपदिकं तदनन्तरं त्रीणि भिन्नानि रूपाणि सन्ति बहवः बह्वी अपि च बहूनि बहवः अस्तु अग्रिमं पठतु बहवः इत्युक्ते किं बहवः किं बहवः इत्युक्ते बहव विसर्ग हकार नास्ति अन्ते
बहव विसर्ग अस्ति
विसर्ग अन्ते अस्ति प्रातिपदिकं तु उकारान्त बहु इति अस्ति बह्वी बहवः बहूनि अस्तु शैलजा भगिनी अग्रिमं पठतु ओ अस्तु धन्यवादः बीना भगिनी चिन्ता मास्तु
आं भगिनि रमेशः ममापि पठनं बहु अस्ति ममापि इस् मम शब् अस्मत् चकारान्त अस्मत् भगिनि
मम योगः
अपि
अपि मम योग मम कीदृशपदं
मम इस् षष्टिविभक्ति वा भगिनि
प्रातिपदिकं किं
अस्मद् नो नो नाट् अस्मद् माम् अहं या
अस्मदेव भगिनि
अस्मदेव न भगिनि
सत्यं सत्यम् अस्मदितम् एकं प्रातिपदिकम् अस्ति अर्थः कः भगिनि
ममापि you're asking the meaning for mamapi bhagini
na asmad
asmad ardham asmad asmad is takarant asmad is
ityukte
I always get this doubt bhagini whenever you know we chant like asmad gurubhyo namaha we say so I don't know really the meaning of asmad
sudha bhagini asmad ityukte
asmad ityukte aham I
अहम् ऐ ऐ इन् इङ्ग्लिश् ऐ देट्स् आल् अस्मद् इत्युक्ते ऐ मे
सो इट् इस् लैक् अहम् ओन्लि द रूट् वर्ड्
भगिनि रूट् वर्ड् फार् अहम् इस् अस्मद्
दकारान्त
सरलमेव अस्मद् अस्मद् इत्युक्ते अहम् अहं षष्टिविभक्ति इत्युक्ते षष्टि इत्युक्ते सम्बन्धरूपम् इत्युक्ते मै मेरा मेरी
सो ममापि इस् वाट् विभक्ति फार्म् भगिनि हियर्
मम योगः
प्लस् अपि
सन्धि अभवत् मम अकारान्त मम अन्ते तु अकारान्त अस्ति ह्रस्व अ अस्ति मम तदनन्तरम् अपि अन्य ह्रस्व अकारान्त अस्ति अपि अयोगः अ इत्युक्ते आ दीर्घ आ अस्ति सुसूत्रमस्ति अकः सवर्ण दीर्घः इति एकं सूत्रमस्ति सूत्रं किं वदति अक् प्रत्याहारे अक् प्रत्याहारे किं किं सन्ति वदतु
आसे कातक्
वदतु वदतु किं 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 सन्ति के के वर्णाः सन्ति अ इ उण् ऋल् ऋक् इत्युक्ते अ इ उ ऋ
आ इ उ अण
न न न न अ इ उ
ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ ऋ
नकार तु वर्ण नास्ति तत्र
वर्ण नास्ति
अक् अक्कः इत्युक्ते षष्टि विभक्ति अकः सवर्ण सवर्ण इत्युक्ते समानवर्ण इत्युक्ते अयोगः अ इ योगः इ उ योगः उ रु योगः रु इति यदि समानवर्ण अस्ति चेत् अन्ततो गत्वा किम् अभवत् वाट् हेपन्स् एट् दि एण्ड् वेन् टु सेम् अक् वर्णस् आर् टुगेदर् दीर्घ वर्ण आदेश देर् इस् अ कालिङ्ग् फार् अ लाङ्ग् वर्ण इत्युक्ते अयोगः आ भवति उत्तमम् इ योगः इ ई भवति उ योगः उ ऊ भवति ऋ योगः ऋ ऋ भवति अवगतम्
आं भगिनि
तदेव अस्तु अधुना ममापि वदतु
I accidentally closed this. 1 minute, Bhagini, sorry. Mamapi patanam bahu asti. Patanam is studies. Dvitiya vibhakti ekvachana shabdaha. Bahu asti. He's saying that he had lot to study.
पठनं बहु अस्ति बहु अस्ति बहु अस्ति इत्युक्ते बहु कीदृशपदम्
अव्ययपदं वा भगिनि बहु
अव्यय अस्ति वा
जस्ट् नौ यु टोल्ड् यु नो प्रातिपदकम् इस् बहु फार् बहवः बहवी अण्ड् बहुनि इस् इट् दट् सेम् बहु हियर् नो भगिनि
प्रातिपदिकं तु अस्ति किन्तु अव्ययपदं बहु अस्ति वा
एकनिमिषः बहु इस् यस् भगिनि अव्ययपदम् इण्डिक्लैण्ड् इट्स् इस्
कुत्र कुत्र दत्तं भगिनि
नो 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 इट्स् एड्जेक्टिव् भगिनि सोरि इट् इस् एन् एड्जेक्टिव् बहु इस्
अस्तु
विशेषणपदं
विशेषणपदम् अस्ति बहु किमर्थं बहु अस्ति अत्र ममापि पठनं बहु न अहं तु न जानामि व्याकरणे अत्र किम् अभवत् वाट् इस् हेपनिङ्ग् इन् ग्रामर् ऐ एम् नाट् श्योर् किन्तु बहु तु विशेषणपदमस्ति पठनं बहु अस्ति इति
सो मच्
हा इति सो मच् टु स्टडि अस्तु अस्तु तदनन्तरम् अग्रिमं वाक्यं पठतु
दशानिमिषेभ्यान्तरे आपणं गत्वा
समीकरोतु भगिनि
दशनिमिषाभ्यन्तरे दशनिमेषाभ्यन्तरे भगिनि दशनिमेषाभ्यन्तरे आपणं गत्वा आगन्तुं शक्यते शक्यते
शक्यते इत्युक्ते
रमेशः माता रमेशस्य माता दश निमिषः अनन्तरं आपणं
पठतु इति
दशनिमिषान्तरे पठतु इति वदति
दशनिमेषाः अन्तरे पठतु इति
वै इट् इस् नाट् निमिषाभ्यान्तरे अण्ड् निमेषाभ्यान्तरे भगिनि इस् इट् बिकास् आफ़् विभक्ति फार्म्
सन्धि सन्धि भगिनि
हा हा
दश दश इत्युक्ते दश एकं पदं निमेष निमेष इत्युक्ते मिनिट्
मिनिट्
निमेषाः अपि अभि अभि अन्तरे अन्तरे अपि अभियन्तरे अभियन्तरे इत्युक्ते सन्धि अभवत् दशनिमेषे दशनिमेषाभ्यन्तरे इति तु सप्तमीरूपम् apanam gatva. Apanam gatva.
Apanam gatva. I mean, after going, after coming back from market, I mean, gatva
after is having gone.
Is going and like apanam gatva. After going to market and after coming back, or that is it the same? Is it what she is saying?
Samaneva. Samaneva. Having gone.
Shakyate agantum.
Agantum ityukte?
Immediately after coming.
Agantum. Kidrisha pratyaya asti tatra.
Agantum. Sudha I'm thinking it is nothing to link padam, but I'm thinking bhagini.
Kim?
Tumun pratyaya.
Tumun. Tumun ityukte?
Tumun ityukte, it indicates the purpose of action.
Purpose. Ityukte? Agantum ityukte?
Having come back, like to come back, after coming back.
Ane me, ane par. Tadeva.
What is it denote, Bhagini? Sorry?
Tumun ityukte chaturthi. Like, ane ke liye, something like. Not failure, but like a purpose.
Agantum is once you come back or something like that. Yeah.
Sumun agantum. Aane ke liye.
Tum.
Kis liye aane?
What did you say, Bhagini? Is it tumun?
Tumun. Ekam pratyaya asti, Bhagini. Tumun ekam pratyaya asti. Kidrisha padam ekam? Krudanta padam asti. Krudanta ityukte, it is not a kriya padam, but it gives you
verbal action.
It gives you information about the action. Kintu, it is itself not a, technically it is not a kriya padam. Iti ityukte agantum shakyate. Shakyate ityukte kim? Kīdrisha padam
shakyate?
Shakyate vadatu.
Shakyate ātmanepadi atta
asti. Ātmanepadi padam asti. Ātmanepadi padam ityukte kim?
Shakyate, it means it can be yaklakar ātmanepadam yabagina.
Sudha Bhagini, sayam karotu.
Aam Bhagini. Shakyate iti atmane padi padam asti.
Aam Bhagini.
Ityukte? Shakyate. Sarvani rupani vadatu. Shakyate. Shakyate, shakyante.
Shakyate.
Vadatu, sarvani vadatu.
Shakyate, shakyete, shakyante. Shakyaye, shakyavahe, shakyamahe.
Uttama Purusha Rupani vadatu?
Uttama Purusha Rupani, shakyase.
Na, uttama purusha rupani bhagini.
Sorry, bhagini.
Shakye. Shakyaye tu na. Shakye.
Shakyavahe, shakyamahe.
Tadeva. Sailaja Bhagini, vadatu artha kim? Shakyate ityukte?
It can be once after coming back from the market, you can study. That's what it meant.
That's what sentence it means. Kar sakte ho. Sakte ho. That's how we get the Hindi word, na, sakna. Main kar sakti hu. You know that word? Tum kar sakte ho.
Ma kar sakti hu. Yeah, that I heard, Bhagini. Shakyate.
So, sakta karna, shakti konle. Same sound. शक्यते आत्मनेपदी रूपम् इत्युक्ते दशनिमेषाभ्यन्तरे आपणं गत्वा आगन्तुं शक्यते आने के बा आने पर कर सकते हो क्या कर सकते हो पठनं संपूर्णतया वदतु अत्र किम् अभवत्
सेण्टेन्स् मे भगिनी Do you want me to read out again?
Ambagini, sampurnataya iti vakye kim abhavat vadatu.
Mata Ramesham iti vadati. Darshan nimesha abhyantare apanam gatva agantum shakyate. Anantaram
इत्युक्ते
प्रथमं आपणं
गच्छतु
अनन्तरं पठनं करोतु इति माता रमेशं वदति
उत्तमं तदेव इति माता रमेशं वदति उत्तरम् उत्तमम् अग्रिमं पठतु सुधा भगिनी
आं भगिनि भवती शीघ्रं धनं स्यूतं च ददातु
न भगिनि एकम् अन्य वाक्यम्
अनन्तरं भवान्
भवान् पठतु
अनन्तरं कीदृशपदम्
अनन्तरम् अव्ययपदमस्ति
अव्ययमस्ति वा सर्वदा अनन्तरम् एव अस्ति वा
नपुंसकलिङ्गपदम् अस्ति एण्ड् अनन्तरम् इस् इण्डेक्लैन् भगिनि अनन्तर् इस् नपुंसकलिङ्गपदम्
हा अनन्तर इत्युक्ते नपुंसकलिङ्गम् अनन्तरम् इत्युक्ते
इस् इण्डेक्लैन्
अव्ययपदम् इत्युक्ते नपुंसकलिङ्गम् अस्ति चेत् अपि अनन्तरम् एव भवति प्रथमविभक्तिरूपम् अस्ति वा न वा
आं भगिनि
अनन्तरम् एव भवति अनन्तरं भवान् कीदृशपदम् एकवारं वदतु प्रातिपदिकं किं
भवान् इति भव तकारान्तपुंलिङ्ग भवत् शब्दः अस्ति प्रथमपुरुष एकवचनं भवान्
प्रथमविभक्तिरूपाणि वदतु
भवान् भवन्तौ भवन्तः
उत्तमं भवान् भवन्तौ भवन्तः द्वितीयरूप विभक्तिरूपाणि वदतु शैलजा भगिनी
आं भगिनि
भवान् भवन्तौ भवन्तः तदनन्तरं
जस्ट् ए मिनिट् भगिनि सोरि या
वदतु भगिनि
It is from Tritiya, Bhagini?
No, Dvitiya, Bhadatu, Bhagini. Asuna?
Dvitiya is...
Asura, Bhagini, Bhadatu?
Bhavantam, Bhavantav, Bhavantaha.
Tadanantaram, Tritiya?
Tritiya, Bhavata... भवता भवद्भ्यां भवद्भिः
उत्तमं शैलजा भगिनी सर्वाणि रूपाणि वदतु एकवारं
भवन्ते भवत भवन्तौ भवतः
भवन्तं भवन्तौ भवन्तः भवता भवन्ता भवन्तां भवन्तं भवन्तः भवन्ते भवन्तं भवन्तः भवतः भवन्तं भवन्तां भवन्तः भवतः भवन्तोः भवतां भवती भवतोः भवसु
भवसु वा भवत्सु किं
भवत्सु
भवत्सु भवान् इत्युक्ते प्रथम भवान् कीदृशरूपं भवान् भवान्
भवान् इस् आप् जैसा शब्द भगिनि
न विभक्तिरूपं किं भवान्
भवान् प्रथमा विभक्ति एकवचनशब्दः भवान्
भवान् भवान् सम्बोधनरूपम् अस्ति वा न वा तत्र
नास्ति भगिनि भवान् इट्सेल्फ् इस् रिस्पेक्टफुल्
भवान् तदेव सम्बोधनरूपम् अस्ति अत्र आप्
अस्ति वा भगिनि
तदेव भवान् आप् तदेव अहम् अपि अहमेव भवति किमपि अन्यरूपं तु आवश्यकं नास्ति न तत्र भवान् भवानेव भवति अहम् अहं भवति अस्तु सो अनन्तरं भवान् पठतु हा सुधा भगिनी अन्तिमवाक्यं पठतु
हां भगिनि होम् भवती शीघ्रं धनं स्यूतं च ददातु रमेशः अम्बां वदति शीघ्रं धनं स्यूतं ददातु इति
ददातु कीदृशपदं
ददातु इति लोट्लकार प्रथमपुरुष प्रथमपुरुष एकवचनशब्दं
धातुरूपं किं
धातु
धातु अस्ति अत्र तु गण किं
ददाति इति
जुहोत्यादि
जुहोत्यादि
किं कथं जानीमः दादा भवति
द्वित्वं भवति
तदेव द्वित्वं भवति तदनन्तरं ददातु ह्रस्वम् अपि आगच्छति एकं सूत्रेण दाधा ददा भवति एकं सूत्रमस्ति तत्र
भगिनी ऐ एम् लुकिङ्ग् फार्वर्ड् टु लर्न् घणास् फ्रम् यू भगिनी
अय्यो नो ऐ एम् नाट् अ गण टीचर् येट् ऐ एम् जस्ट् वट् ऐ नो ऐ एम् शेरिङ्ग् नो यु आर् इन् लक्ष्मी भगिनी एण्ड् सुब्रह्मण्य महोदय भगिनी
Yes, Bhagini, but what happened is initially I did not go, so later, after 5-6 classes only, I realized it to go, but it was, I couldn't catch up when I went one time, like, you know, it was looking like, you know.
No, you go and listen to the past recordings, Bhagini, all are recorded.
Yes, Bhagini, sure I'll do
that. That's very important. I also, actually, I'll go back and keep listening. Even I go and listen. Can you believe? These same classes I know, but I go and listen. Because each teacher brings their own light. And it's important to not forget the light. So you go and listen to Subramanya Mahodaya and Lakshmi Bhaginya's Vyakarana Varga. Beautiful. They are beautiful teachers, both of them. So I have never taught Vyakarana like that before, so my knowledge is not, experience is not fully there, but what little I know I like to share. So hu bhavati shigram kidrusha padam bhagini
shigram avyaya padam asti
shigram viparitarthaka padam kim
mandam
मन्दं
शीघ्रं
अस्तु अस्तु. स्यूतं कीदृशपदम्?
स्यूतं
नपुंसकलिङ्गशब्दः.
हा, कीदृश नपुंसकलिङ्गं रूपम्?
भगिनि, स्यूता इस् पुल्लिङ्गशब्दः भगिनि.
ओ, अस्ति वा? क्षम्यतां.
स्यूतः
इत्युक्ते अत्र कीदृशपदं रूपम्?
सो इट् इस् द्वितीयविभक्ति एकवचनशब्दः. स्यूतं को, ऐ मीन् बेग् को लाव् दे दो.
बेग् को लाव् पुंलिङ्गं पदम् अस्ति. उत्तमं, तदेव. स्यूतम् अपि धनं. धनं कीदृशपदं लिङ्गं किं तत्र?
धनम् इस् नपुंसकलिङ्गपदम्.
धनं
नपुंसकलिङ्गं,
नपुंसकलिङ्गमेव. धनम् अपि च, धनम् अपि च स्यूतं तु कर्मपदमस्ति च. ददातु. उत्तमम्. अस्तु, उत्तमम्. अग्रिमसप्ताहे अत्र एव अग्रिमं किञ्चित् किञ्चित् पठामः. विशेषः इति द्वितीयविभक्ति, यदि अहं विस्मरामि किञ्चित् पुनः स्मरणार्थम् एकवारं वदतु वा. अस्तु अस्तु. हा, सुधा भगिनी अन्तिमशान्तिपाठ वदतु.
आं भगिनि. ओ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरिः ओम्. सर्वं श्रीकृष्णार्पणमस्तु.
धन्यवादः. मिलामः. नमस्कारः.
धन्यवादः.
धन्यवादः भगिनी.
नमस्कारः.
नमस्कारः. धन्यवादः.